ओम गुरुर् ब्रह्मा गुरुर् विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः। हरिः ओम श्री गुरुभ्यो नमः। हरिः ओम नमस्कारः महोदय।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र हल्सन्धिः। हल्सन्धिमध्ये इदानीं वयं पूर्वसवर्णसन्धिः इति अस्माकं प्रवर्तमानः विषयः। तत्र वयं करपत्रे यद् दत्तं तत् किञ्चित् पठितवन्तः। तत्र आदिमभागः, तत्र अर्धभागः प्रायशः पठितवन्तः। पुनः तत्र किञ्चित् पठित्वा तदनन्तरम् अग्रे सरामः। तर्हि तत्र वेदा भगिनी आरम्भं करोति वा? तत्र करपत्र पूर्वसवर्णसन्धिः,
करपत्रम् एकनिमिषम् अत्र अस्ति इति
नवम उपशीर्षकः भगिनि,
नवम उपशीर्षकः अस्ति, परन्तु भवतः ईमेल् मध्ये अस्ति वा तत्?
आमामां सर्वदा प्रेषयामि भगिनि, तत्र यदि भवती
एकनिमिषं
पश्यति चेत्। हा अस्तु, तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोतु। भवती आरम्भं करोतु। वेदा भगिनी तत्र ईमेल् मध्ये तत्र गृहपाठः इति यत्र अस्ति तत्र करपत्रमपि इति अस्ति।
ओ अस्तु अस्तु, गृहपाठः ध्वनिमुद्रं शृणु, ओ करपत्रम्, ओके ओके प्राप्तवती।
अस्तु, तर्हि तत्र उषा भगिनी भवती आरम्भं करोतु।
अन्यच्च अवधेयं यत् हकारस्य पूर्णसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस् पूर्वतनवर्ण
तत्र आरम्भतः एव एकवारं पठामः, यतोहि तत्र पुनस्मरणं स्यात्।
द्वयोः अन्यतरस्यां तत्र एव वा
नाम जयो अन्यतरस्याम् इति
पूर्वसवर्णसन्धिः झयो होऽन्यतरस्यां झयः उत्तरस्य हकारस्य विकल्पेन पूर्णसवर्णादेशो भवति। अन्यतरस्याम् इत्युक्ते विकल्पेन झयः पञ्चम्यन्तम् अह षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम्। उदः स्थास्तम्भोः पूर्वस्य इत्यस्मात् पूर्वस्य इत्यस्य अनुवृत्तिः। अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्णः इत्यस्य अनुवृत्तिः। तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं जयः अह पूर्वस्य सवर्णः संहितायाम् अन्यतरस्याम्। उदाहरणं पठामि वा महोदय, अथवा यावत् पठित
उदाहरणमपि पठतु भगिनि।
यद्यपि झै इत्युक्ते सर्वाणि अननुनासिकवर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र झलां झषोन्ते इत्यनेन झष्ट्वं कृत्वा तृतीयसदस्यादेशो भवति। धर्म्यात् योगः हि झलां झषोन्ते इत्यनेन तकारस्य स्थाने दकार आगच्छति, अतः धर्म्याद् योगः हि अनन्तरं झयो होन्यतरस्याम् इति सूत्रेण धर्म्याद्धि एकरूपम् अस्ति विकल्पेन, अनन्तरं धर्म्याद्धि अन्यत् एकं रूपम् अस्ति।
हा समीचीनं भगिनि। हा इदानीं तत्र यत् पठितं भवति किञ्चित् वदतु तर्हि।
पूर्वसवर्णसन्धि इत्युक्ते किम् इति दत्तमस्ति, सूत्रमस्ति झयो होन्यतरस्याम् इति। यदा झै प्रत्याहारे सर्वाणि व्यञ्जना अनुनासिक अननुनासिकव्यञ्जनानि अस्ति, तस्मात् परं
हकारस्य
अननुनासिकवर्गीयव्यञ्जनानि सन्ति, तस्मात् परं हकारस्य स्थाने पूर्वस्य सवर्ण आदेशः भवति।
इति सूत्रं वदति. समीचीनं.
जयः इत्युक्ते पञ्चम्यन्तं. पञ्चम्यन्तम् इत्युक्ते परकार्यं पूर्वनिमित्तम्. अह स्थानी अस्ति. षष्ट्यन्तम् अन्यतरस्याम् इत्युक्ते विकल्पेन. अन्यतरस्यां सप्तम्यन्तं भवति. सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं परनिमित्तम्. अत्र अनुवृत्तिसहितेन सूत्रं दत्तमस्ति महोदय. उदः स्थाने स्था स्तम्भो पूर्वस्य इति सूत्रात् पूर्वस्य इत्यस्य अनुवृत्तिः भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रात् सवर्णः इत्यस्य अनुवृत्तिः भवति. तयोर्यवावचि संहितायाम् इति सूत्रात् संहितायाम् इति अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रमस्ति जयः अह पूर्वस्य सवर्णः संहितायाम् अन्यतरस्याम् इति. अनन्तरं वणिक्
तत्र मम करपत्रे तत्र संहितायाम् इति नास्ति.
मम करपत्रे अपि नास्ति महोदय. कुत्र पठितवती भगिनी
भवती? तत्र पी डि एफ् मध्ये तादृशमस्ति वा भगिनि?
मम पार्श्वे प्रिण्ट् औट् अस्ति महोदय.
अस्तु 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 अतः ओ अस्तु अस्तु. समीचीनं समीचीनं भगिनि. अस्तु अस्तु चिन्ता मास्तु.
कुत्र महोदय कुत्र अस्ति एतत्?
प्रायश तत्र पूर्वं
भवान् एव प्रेषितवान् न महोदय. तस्मात् एव अहं प्रिण्ट् औट्
तत् करपत्रमेव मम पार्श्वे अस्ति. तत् एतत् सर्वे
भगिनि न तत्र एच् डि एम् एल् फैल् यत् पेज् अस्ति तद् भिन्नमस्ति भगिनि. किन्तु तत्र पी डि एफ् अपि लभ्यते. पी डि एफ् मध्ये तादृशम् उक्तम् अस्ति. तावदेव. अस्तु समीचीनं. प्राप्तं भगिनि प्राप्तं. चिन्ता मास्तु.
वणिक् योगः हसति. वणिक्
एकनिमिषम् एकनिमिषं भगिनि. एतावत् समीचीनम् एतावत् समीचीनम्. अस्तु इदानीम् अग्रे तत्र वेदा भगिनी अग्रे इदानीं तत्र
मम पार्श्वे तु तद् नास्ति न महोदय.
यद् भवत्याः पुरतः अस्ति तदेव पठतु. तत्र वणिक् हसति इति.
वणिक् हसति तत्र ककार पूर्वपदे अन्तिमवर्ण ककार अस्ति. तत्परं हकार अस्ति. जलां झषोन्ते इत्यनेन ककारस्य स्थाने गकार तृतीयवर्णः आयाति. जलां झषोन्ते इत्यनेन झष् आदेशः भवति. ककारस्य स्थाने गकार आयाति. वणिग् हसति इति सन्धि न कृतं तत्र. केवलं एतदेव
प्रथमकार्यम् उक्तम् अत्र. प्रथमसोपानम् उक्तम् अत्र. समीचीनम् अग्रे.
तत् सृष्टं जलां झषोन्ति इत्यनेन तत् पूर्वपदस्य तकारस्य दकार भवति. तद् योगः हितम्. एतत् एकं रूपम् अस्ति. तत्पश्चात् अन्यच्च अन्यत् च अवधेयं यत् हकारस्य पूर्णसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः. अवधेयं
यत् तत्र वयं गतवर्गे अपि दृष्टवन्तः खलु नाम तत्र
आम्
अत्र सूत्रे साक्षात् किम् उक्तम् इत्युक्ते सवर्णः इति खलु. पूर्वस्य सवर्णः तस्य तत्र आगमः वा आदेशः वा?
आदेशः एव.
आदेशः आगमः न खलु. नाम आदेशः किमर्थं तत्र हकारस्य स्थाने धकारः भवति इति अग्रे पश्यामः. समीचीनम् आदेशः. किन्तु तत्र किमर्थं तत्र तकारस्य स्थाने धकारः आगच्छति? नाम तत्र सवर्णः धकारः एव किमर्थम् इति न उक्तं खलु. केवलं सवर्णः इति तत्र धकारः अथवा घकारः अथवा धकारः किमर्थम् एतत् तत्र आगच्छति अथवा तत्र कथं सवर्णः सावर्ण्यं कथम् अस्ति इति न उक्तम्. अतः तत्र तस्य समाधानम् अग्रे भवति. तत्र किम् उक्तम्? हकारस्य पूर्वसवर्णादेशः सर्वत्र किमस्ति? पूर्वतनवर्णस्य वर्गस्य चतुर्थः. नाम पूर्वसवर्ण आदेशः कस्य भवति इत्युक्ते सर्वत्र कस्य भवति?
प्रथम उदाहरणे त अस्ति, तत् वर्णस्य, तत् वर्गस्य, त वर्गस्य चतुर्थवर्णः त थ द ध ध भवति इति उक्तम्.
इति उक्तम्. अतः तत्र सर्वदा चतुर्थसदस्यस्य आदेशः इति
चतुर्थ
ज इत्युक्ते सर्वाणि अननुनासिकवर्गीयव्यञ्जनानि इति कृत्वा तत्र यद् जय् मध्ये अस्ति तस्य वर्गः तु अस्ति एव, अपि वर्गस्य अनुनासिकः नास्ति इति कृत्वा इति अपि अस्ति. अतः तत्र प्रथम चत्वारसदस्यः सन्ति, तेषु अन्यतमः अस्ति, किन्तु तत्र प्रथमतया चतुर्थः सदस्यः एव सावर्ण्यः सवर्णः इति उक्तम्. अस्तु, किमर्थमिति अग्रे पठतु भगिनि. हा,
नादः घोषः संवारः महाप्राणः इति कारणतः तत्र बाह्यप्रयत्नम् अन्य केऽपि प्रयत्नमस्ति न तद् तत्र नादः घोषः संवारः महाप्राण इति कारणतः एक 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 प्रयत्नः अस्ति. तस्य नाम अहं न स्मरितवती. किमस्ति, कोऽपि जानाति वा? तत् बाह्यप्रयत्नम् अन्तरप्रयत्नं वा सम्प्रयत्नं?
प्रथमम् उच्चारणस्थानानि भगिनि, तदनन्तरम् आभ्यन्तरप्रयत्नः आभ्यन्तर
अण्ड्
तदनन्तरं बाह्यप्रयत्नः
बाह्यप्रयत्नः. सो दिस् इस् आभ्यन्तरप्रयत्नम् ऐ थिङ्क्. नादघोषः
नादघोष तत् तत्तु बाह्यप्रयत्नः
बाह्यप्रयत्नम्. सामान्यतया सावरणीयं ज्ञायते मुखस्य स्थानेन, करेक्ट्. परन्तु यत्र स्थानेन निर्णयः असम्भवः तत्र आभ्यन्तरप्रयत्नः प्रयुज्यते. यत्र आभ्यन्तरप्रयत्नेन निर्णयः असम्भवः तत्र बाह्यप्रयत्नः प्रयुज्यते. सामान्यतः त्रिविधं तस्य प्रयत्नः किमर्थं भवति इति तत्र उक्तं. सामान्यतः सावरणं ज्ञायते मुखस्य स्थानेन इति, कवर्गस्य कण्ठ इति मुखस्थानमस्ति, किमस्ति कः कवर्गस्य अकु अकु विसर्जनीय संथिङ्ग् लैक् दट् ऐ डोण्ट् रिमेम्बर् बट् मोस्मे दट् बिकम्स् अ कण्ठस्थानं. सिमिलर्ली स्थानम् इति यदि एक भागः अस्ति लैक् अकार कवर्गः अपि च हकार इति अहं मन्ये, ऐ एम् नाट् श्योर् इति मन्ये
हकार अपि विसर्गः
अकार विसर्गः ते तस्य स्थान अस्ति तेन स्थान तस्य स्थान अस्ति कण्ठः इति तो कण्ठस्थाने अस्ति इति कारणतः सावर्ण्ये तु भवति. परन्तु यत्र स्थानेन निर्णयः किमर्थं स्थानेन निर्णयः असम्भवः तत्र ओ क वर्गस्य स्थाने ओके तत्र तु वि हाव् त वर्ग तदेव तत्र सवर्णं नास्ति मुखस्य स्थानेन तस्य सवर्णं नास्ति. दकार तकार त वर्गः कण्ठः नास्ति ह वर्ग हकारस्य स्थानमस्ति कण्ठः, किन्तु अननुनासिकवर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः अशक्यः. ओ अस्तु अस्तु, हकारस्य स्थानमस्ति कण्ठः किन्तु अननुनासिकवर्गीयव्यञ्जनेषु एकैकस्मिन् वर्गे सर्वेषां स्थानं समानम् इति कारणतः स्थानेन निर्णयः शक्यः.
उदाहरणं स्वीकृत्य वदतु. तत्र
हकारस्य आभ्यन्तरप्रयत्नः ऊष्मानः श
न यत् पठितवती तस्य अर्थः
कः? हकारस्य स्थाने अस्ति कण्ठः, किन्तु अननुनासिकवर्गीय व्यञ्जनेषु इत्युक्ते कवर्ग चवर्ग तवर्ग पवर्ग इति एते सर्वे अपि सर्वेषां स्थानं समानम्.
नाम सर्वेषां वर्गीयव्यञ्जनानां स्थानं समानम् इति वा अथवा अन्यत् वा?
न, तद् नास्ति. वर्गीयव्यञ्जनेषु स्थानं समानम् इति
अथ तत्र शनैः गच्छतु. तर्हि तत्र अननुनासिकवर्गीयव्यञ्जनेषु अग्रे किं दत्तमस्ति?
एकैकस्मिन्
वर्गे एकस्मिन् वर्गे इति तत्र विशेषणविशेष्यभावः खलु. एकः वर्गः एकैकवर्गः एकैकस्मिन् वर्गे नाम प्रत्येकस्मिन् वर्गे. तर्हि तत्र सर्वेषां वर्गाणाम् इति न, एकः वर्गः नाम कवर्गः इति चिन्तयतु.
अस्तु अस्तु अस्तु.
तदा किं भवति? कवर्गे के वर्णाः सन्ति? कवर्गे
कवर्गे
कखगग किन्तु अननुनासिक इत्युक्ते चत्वारः खलु?
आम् आम् आं महोदय.
कखगग तर्हि तेषां चतुर्णां स्थानं समानं खलु?
आम्
इति कृत्वा तत्र स्थानीयनिर्णयः न कर्तुं शक्यते.
यतो हि
नाम तत्र यदि भेदः तेषु भेदः वर्तते चेत् स्थानविधया भेदः वर्तते चेत् अस्तु, कण्ठः एतत् कण्ठ तत्र
इति कारणतः ककार खकार गकार गकार अपि भवितुम् अर्हति.
सर्वेषां स्थानं समानम् इति कृत्वा तत्र स्थानेन निर्णयः न कर्तुं
शक्नुमः.
तत्र हकारस्य स्थानं कण्ठः तद्भिन्नं, किन्तु वर्गे कः सदस्यः भवेत् इति प्रश्ने सति निर्णयः न भवति, यतोहि सर्वेषां स्थानं समानं. अग्रे
हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः श मूर्धन्यश्च स ह इत्येव ऊष्माणाः, अतः अनेन निर्णयः असम्भवः. आभ्यन्तरप्रयत्नः ऊष्माणः ष स ह इत्येव ऊष्माणाः, अतः अनेन निर्णयः असम्भवः. तत्रापि एते सर्वे ऊष्माणः इति कारणतः हकारस्य समानं किम्?
इदानीं तत्र सन्धौ किं भवति? तत्र एकः वर्णः तत्र वर्गीय अननुनासिकवर्णः भवति खलु?
आम् आम्
खलु. तत्र धर्म्यात् तदनन्तरं हकारः खलु?
आम्
वणिग् तदनन्तरं हसति. ककारः हकारः अथवा तकारः हकारः इति अस्ति खलु?
आम्
तर्हि तत्र तकारः ककारः तकारः इति अस्ति चेत् तत्र तकारस्थाने कः वर्णः हकारसमानं वर्णः सावर्ण्यवर्णः कः भवेत् इति प्रश्ने सति तत्र किं तत्र स्थानेन निर्णयः न भवति खलु इदानीम् इति दृष्टवन्तः खलु. स्थानेन निर्णयः न भवति, निर्णयः अशक्यः. नाम तत्र तकारः अस्ति चेत् तवर्गे कः वर्णः सवर्णः हकारस्य इति प्रश्ने उत्तरं न प्राप्तुं शक्नुमः. इदानीम् अस्तु, तर्हि स्थानेन किमपि न भवति, त्यजामः स्थानम्. तदनन्तरम् अस्तु, तर्हि आभ्यन्तरप्रयत्नः पश्यामः इति चेत् तत्र हकारस्य आभ्यन्तरप्रयत्नः किमस्ति? ऊष्माणः इति. हकारस्य ऊष्माणः अस्ति. इदानीं कवर्ग अथवा तवर्गः अस्ति इति चिन्तयतु. तवर्गे चत्वारः वर्णाः सन्ति. तेषु कस्य वर्णस्य आभ्यन्तरप्रयत्नः ऊष्माणः अस्ति?
कोऽपि नास्ति.
यतोहि केवलम् ऊष्माणः इति केषां भवति ऊष्माणः
एव.
अतः आभ्यन्तरप्रयत्नेनैव असम्भवः इति भवति. समीचीनं भगिनि.
समीचीनम्.
इदानीम् अग्रे तर्हि आभ्यन्तरप्रयत्नमपि त्यजामः.
अग्रे हकारस्य बाह्यप्रयत्नः. बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः. हकारस्य बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः. नादः, घोषः, संवारः इति अस्ति वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः च सदस्याः. वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः सदस्याः नादघोषसंवारः इति अस्ति तत्र. तेषु केवलं चतुर्थसदस्यस्य महाप्राणः. तेषु केवलं चतुर्थसदस्य महाप्राणः. अतः हकारस्य स्थाने तद्दत् वर्गस्य चतुर्थसदस्यादेशो भवति. अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति. अस्तु महोदय. किमस्ति चेत् हकारस्य बाह्यप्रयत्नः किमस्ति इत्युक्ते नादः, घोषः, संवारः, महाप्राणः इति दत्तं. तत्र नादः, घोषः, संवारः इति वर्गीयव्यञ्जनानां तृतीयचतुर्थपञ्चमाः सदस्याः. तस्य नादः, घोषः, संवारः इति बाह्यप्रयत्नः अस्ति. परन्तु बाह्यप्रयत्नः अस्ति. तत्र केवलं चतुर्थसदस्यस्य महाप्राणः अपि भवति. महाप्राणः चतुर्थसदस्यस्य महाप्राणः इति बाह्यप्रयत्नमस्ति. तत्कारणेन हकारस्य स्थाने तद् चतुर्थसदस्यस्य समान किं वदामि पूर्णसवर्ण इति भवति. हकारस्य चतुर्थसदस्यस्य सवर्णादेशः भवति. इति कारणतः चतुर्थसदस्य अस्य आदेशः भवति. हकारस्य स्थाने चतुर्थ तद्वर्गस्य चतुर्थसदस्यस्य आदेशः भवति
इति अस्ति भगिनि. समीचीनं नाम तत्र
अस्तु.
समीचीनम् अस्ति नाम तत्र वयं तत्र सावर्ण्यं नाम स्थानेन तत्र स्थाने सावर्ण्यम् अपि तदनन्तरम् आभ्यन्तरप्रयत्ने अपि सावर्ण्यम् अथवा बाह्यप्रयत्ने सावर्ण्यम् इति. अतः तत्र तेन निर्णयं कर्तुं शक्नुमः. किन्तु अत्र केवलं तत्र बाह्यप्रयत्नेन एव तत्र निर्णयः भवति. शक्नुमः इति अस्ति. अपि प्रायशः उषा भगिनी भवती तत्र एच् डि एम् एल् पश्यति चेत् प्रायशः समीचीनं भवति इति मन्ये. यतोहि तत्र प्रायशः अन्ते तत्र चित्रं नास्ति इति मन्ये भगिनि. किन्तु वेदभगिनी तत्र पेज् यदस्ति तस्य अधोभागे गच्छतु. अधोभागे तत्र चित्रद्वयम् अस्ति. तत्र लिखितमस्ति
महोदय. आभ्यन्तरप्रयत्न, बाह्यप्रयत्न अपि च
तत्र स्थानानि प्रयत्नानि
प्रयत्नानि च. ओके या अस्तु महोदय. उच्चारस्थानानि ईरुलु उरुण्य खचट तप खचट तप गजट. ओके वर्णाः कण्ठः अकर्गः हकार और् विसर्ग कण्ठः तालु ई इचु इचु यशाम् इचु यशां तालु इचु यशां तालु रुटु
भगिनि अस्मिन् विषये किमपि वक्तुम् इच्छति वा भगिनि? तत्र बहु किमपि अस्ति किन्तु
औष्ठौ
तत्र
महोदय नादः, घोषः, संवारः इत्युक्ते किं महोदय कथं महाप्राण
नादः तत्र भगिनी तत्र बहु किमपि तत्र अस्ति
महोदय तत् सः विषयः बाह्यप्रयत्नः अत्र अस्ति अत्र हकारः मृदुव्यञ्जनम् अस्ति हश् प्रत्याहारे आगच्छति तत्र अन्ते बाह्यप्रयत्नः इति पश्यामः चेत् इत्युक्ते तत्र अस्माकं सन्ध्यां तकारः अस्ति पूर्ववर्णः अथवा ककारः अस्ति वणिक् अपि च धर्म्यात् इति स्वीकुर्मः चेत् तत्र ककारं स्वीकुर्मः चेदपि स्थानानि पश्यामः चेत् यथा तत्र वेदभगिन्या उक्तं ककारः कवर्गीयव्यञ्जनानि कण्ठस्थाने सन्ति किन्तु सर्वाणि व्यञ्जनानि सन्ति तत्र हकारस्य हकारात् किं हकारस्य कृते किं स्वीकरणीयम् इति न अवगच्छामः तदनन्तरं समानं तदनन्तरम् आभ्यन्तरप्रयत्नः इति पश्यामः तत्र पुनः ऊष्माणाः सन्ति श श स ह इति व्यञ्जनानि किन्तु तस्मिन् स्तम्भे न तु कवर्गीय न तु तवर्गीय व्यञ्जनानि सन्ति अतः तत्रापि साम्यं न भवति
न सन्ति एव
अतः अग्रे गच्छामः बाह्यप्रयत्नाः इति पश्यामः तत्र हकारः केवलं मृदुव्यञ्जनानि इति स्तम्भे अस्ति अपि च तत्रापि केवलं महाप्राणः संवारः नादाः घोषाः इति यत्र लिखितम् अस्ति तस्मिन् एव स्तम्भे अस्ति इदानीं हकारस्य साम्यवर्णाः तत्र चतुर्थवर्गीयव्यञ्जनानि तत्र कवर्गीय घकारः तवर्गीय न चवर्गीय झकारः टवर्गीय ढकारः तवर्गीय धकारः पवर्गीय भकारः एते सन्ति
ओके ओके ओके
एते सन्ति
अस्ति तस्य संवारा नादा घोषाः अस्ति
मृदुव्यञ्जनानि तेषु पुनः महाप्राण अल्पप्राण इति अधोभागे दत्तं हकारः महाप्राणः अतः केवलं महाप्राणसंवारनादघोष इति स्वीकरणीयं तेन तत्र हकारस्य साम्यं केवलम् एतेषु वर्णेषु एव भवति अपि च अतः हकारात् पूर्वं कवर्गीयव्यञ्जनम् अस्ति चेत् घकारः चवर्गीयव्यञ्जनम् अस्ति चेत् झकारः टवर्गीय अस्ति चेत् ढकारः तवर्गीय अस्ति चेत् ढकारः पवर्गीय अस्ति चेत् भकारः भवति अतः तत्र केवलम् अस्माकं कृते वणिक् इत्यत्र घकारं स्वीकरणीयं घकारः स्वीकरणीयः अपि च धर्म्यात् यत्र अस्ति तत्र धकारः एव स्वीकरणीयः अतः धर्म्याद् हि इति भवति तत्र वणिग् इत्यत्र तत्र वणिक् किम् अस्ति तत्र महोदय धकारः भवति तत्र
वणिग्
न धर्म्याद् हि इति वणिग् वणिग् इति भवति तत्र
सत्यं
अतः केवलं
डाक्युमेण्ट् दिस् इस् अ गुड् डाक्युमेण्ट्
महोदय तत्र दत्तमस्ति महोदय नादः इको इको घोषः साउण्ड् अल्पप्राणः नान् आस्पिरेटेड् महाप्राणः आस्पिरेटेड् इत्युक्ते आभ्यन्तरप्रयत्नः मुखस्य अन्ते अस्ति न बाह्यप्रयत्नः मुखात् बहिः
तत्र सत्यं भगिनि तत्र स्पर्शः तत्र स्पर्शः कीदृशः इति तत्र स्पष्टं प्रयत्नम् ईषत् स्पष्टं
स्पर्शः तादृशं ईषत् स्पृष्टः ईषत् विविधः अस्ति पञ्च
सत्यं सत्यं भगिनि अतः तत्र
तादृशम्
अस्ति किन्तु आभ्यन्तर नाम अन्ते अन्ते यः प्रयत्नः अपि बाह्यप्रयत्न तु बाह्यः
अकुहपि सब्जनीयां कण्ठः इचु यशानां तालु ऋटुरसानाम्
इत्युक्ते पद परपदस्य परपदे हकार अस्ति चेत् एव अस्य सूत्रं कार्यं करोति न महोदय
आम् आम् जयोः
सत्यं सत्यं भगिनि सत्यं अतः तत्र प्रथमतया तत्र किम् अस्मिन् सन्धौ तत्र प्रथमतया तकारस्य स्थाने चतुर्थसदस्यस्य नाम वर्गीय अननुनासिकवर्गीयव्यञ्जनस्य स्थाने चतुर्थसमानवर्गीयचतुर्थसदस्यस्य आदेशः प्रथमतया भवति. तदनन्तरं जलां जशोन्ते इति अग्रे तत्र
किमर्थं महोदय तद् करणीयं
तत्र जलां जशोन्ते इति एव प्रथमं भवति महोदय.
आमां क्षम्यताम् आमाम् एतदेव एतदेव हा
क्षम्यतां सूत्रसङ्ख्या ओके
आमामामाम् आम्
पदान्ते स्थितस्य जलवर्णस्य सर्वदा भवति इति
महोदय अत्र परिच्छेदे हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः ष अपि दत्तं नास्ति महोदय तत्र
दत्तं भगिनि किन्तु न किन्तु किम् उक्तं तत्र नाम हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः खलु किन्तु कवर्गस्य सदस्याः 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 के तत्र ख ख घ घ तेषु कः कस्य तत्र आभ्यन्तरप्रयत्नः ऊष्माणः इत्युक्ते कस्यापि नास्ति
कोऽपि नास्ति
अपि दत्तम् अनन्तरं ह महाप्राणः इति
किन्तु भगिनि तत्र अस्माकं कार्यं किम् अस्ति कवर्गः कवर्गीय तत्र व्यञ्जनम् अत्र अस्ति चेत् तस्मिन् वर्गे कः वर्णः समानमस्ति हकारेण सह इति प्रश्नः खलु
चतुर्थ
न प्रश्नः सः एव खलु तत्र अस्माकं कार्यं किं तत्र तकारस्य स्थाने अन्यत् व्यञ्जनं स्थापयितुं कार्यं नास्ति खलु केवलं वर्गीय तत्र कवर्गीयव्यञ्जनमस्ति चेत् कवर्गीय कवर्गे अन्य कः वर्णः अस्ति यः सवर्णः अस्ति हकारेण सह इति खलु किन्तु हकारेण सह समानं भवेत् इति प्रश्नः तत्र किं भवति आभ्यन्तरप्रयत्नः इति आधारेण यदि वयं कर्तुम् इच्छामः हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः इति अस्ति तर्हि कवर्गे तस्य पश्यतु तत्र चित्रे आभ्यन्तरप्रयत्नः तत्र कस्य तत्र आभ्यन्तरप्रयत्नः ऊष्माणः अस्ति तत्र कवर्गे कवर्गे कस्यापि अस्ति वा आभ्यन्तरप्रयत्नः ऊष्माणः इति नास्ति तर्हि चवर्गे अपि तादृशं नास्ति टवर्गे अपि तादृशं नास्ति तर्हि तत्र कस्यापि पूर्वं तत्र यदि वयं तत्र स्थानं दृष्टवन्तः किमासीत् सर्वेषाम् एकस्मिन् वर्गे सर्वेषां स्थानं समानमासीत् खलु अत्र किमस्ति एकस्मिन् वर्गे अथवा सर्वेषां व्यञ्जनानां तत्र आभ्यन्तरप्रयत्न कस्यापि वर्गीयव्यञ्जनस्य आभ्यन्तरप्रयत्नः ऊष्मणः नास्ति तर्हि तत्र कथं वयं वक्तुं शक्नुमः एषः वर्णः तत्र समीपः अस्ति हकारस्य समीपः अस्ति इति कथं वक्तुं शक्नुमः खलु अतः उक्तं तत्र ऊष्माणः केवलं तत्र श श स ह इति एव अस्ति इति कृत्वा तत्र वयं निर्णयः तत्र निर्णयं न कर्तुं शक्नुमः समीचीनं वा भगिनि अस्तु इदानीं तर्हि तत्र इदानीम् अग्रे तत्र शोभा भगिनि अग्रे जगतः हिताय इति
आम् महोदय एकक्षणम् जगतः हिताय इति समासे कृते जगत् योगः हिताय इति पदच्छे समासे कृते जगत् योगः हिताय इति स्वीकरणीयं भवति. जगतः इत्यस्य जगत् इति प्रातिपदिकं हिताय इति तु हिताय इति तत्र किं
तत् पदं तावत् तथैव तिष्ठति, केवलं तत्
अस्तु.
जगतः इति स्थाने जगत् इति स्वीकरणीयम्
अस्तु. जलान् जशोन्ते इत्यनेन जष्त्वं भवति. जगत् इत्यस्य तकारस्य तकारादेशः जलां जशोन्ते इत्यनेन इत्युक्ते जलः पदान्ते जलः स्थाने जश् आदेशः भवति इति. अतः जगद्योग योगः हिताय इति भवति. इदानीं झयो होन्यतरस्याम् इति सूत्रं सूत्रस्य प्रसक्तिः इत्यनेन विकल्पेन पूर्वसवर्णादेशः भवति जगद्धिताय जगद्धिताय इति. इदानीं तत्र यथा दृष्टवन्तः जगत् इत्यस्य जलां जशोन्ते इत्यनेन पदान्ततकारस्य दकारादेशः जगद् इति भवति. तदनन्तरं परवर्णः हि हकारः अस्ति इति कृत्वा हकारस्य पूर्ववर्णस्य सवर्णादेशः विकल्पेन भवति इति. तत्र झयो होन्यतरस्याम् इति सूत्रम् इत्यनेन अयम् आदेशः भवति. अतः इदानीं दृष्टवन्तः तवर्गीयसावर्ण्यं हवर् हकारस्य सावर्ण्यं तवर्गीये तवर्गीये धकारः अस्ति चतुर्थसदस्यः इति. अतः जगद्ध हिताय जगद्ध योगः धिताय इति भवति. अतः जगद्धिताय इति यतोहि वैकल्पिकप्रयोगः इति कृत्वा अन्यस्मिन् पक्षे जगद् हिताय इति एव तिष्ठति. तत्र जि इति दत्तं किन्तु जगद् इति एव जगद् जगद्धिताय.
समीचीनं भगिनि. अग्रे
अतः अत्र प्रश्नः उदेति यत् झयो होन्यतरस्याम् इति सूत्रस्य अन्तर्गतानि उदाहरणानि सर्वाणि पदान्ते, अपदान्ते दृष्टान्तो न दीयते. अपि च उच्यते यत् अस्य सूत्रस्य प्रवर्तनात् प्रागेव सर्वत्र जलां जशोन्ते इत्यस्य कार्यं भवति. जलां जशोन्ते केवलं पदान्ते प्रसक्तं. तर्हि अनेन अवगन्तव्यं किं यत् झयो होन्यतरस्यां केवलं पदान्ते प्रवर्तते. वस्तुतः अपदान्ते इत्युक्ते हकारः कस्यचित् प्रत्ययस्य आदौ भवेत्. अपदान्ते इत्युक्ते हकारः कस्यचित् प्रत्ययस्य आदौ भवेत्. एक एव प्रत्ययः हकारादिः हि प्रत्ययः. किन्तु झयः परः हि प्रत्ययो वर्तते चेत् तत्र इदानीम् अन्यत् सूत्रं हुजल्भ्यो हेर्धिः इत्यनेन धि आदेशो भवति. तस्मात् हि प्रत्यये परे झयो होन्यतरस्याम् इत्यस्य प्रसक्तिर्नास्ति. वच् योगः हि हुजल्भ्यो हेर्धि इति सूत्रेण वच् योगः धि वग्धि इति भवति. तावत् वदामि महोदय. प्रश्नः उदेति इदानीं तत्र झयो होन्यतरस्याम् इति सूत्रस्य तत्र अन्तर्गतानि उदाहरणानि सर्वाणि पदान्ते एव भवन्ति. यतोहि तस्मात् प्राक् जलां जशोन्ति इति कार्यं करोति येन पदान्त व्यञ्जनस्य झष् झल झल् वर्णस्य पदान्त झल् वर्णस्य झष् वर्णादेशः भवति एव. अतः तस्मात् परमेव झयो होन्यतरस्याम् इति सूत्रस्य प्रसक्तिः भवति. तर्हि एतस्य अर्थः किं तत्र झलां झषोन्ते केवलं तर्हि अनेन किं झयो होन्यतरस्यां केवलं पदान्त एव प्रवर्तते इति, यतोहि तस्य प्रसक्तिः तत्र एव भवति वा इति वस्तुतः प्रश्नः उदेति. एतादृशम् एतादृशः प्रश्नः उदेति वस्तुतः अपदान्ते. अपदान्ते इत्युक्ते तत्र हकारः कस्यचित् प्रत्ययस्य आदौ भवेत्. अपदान्ते इति वदनीयं चेत् कस्यचित् प्रत्ययस्य आदौ, यथा तत्र उदाहरणं दत्तमस्ति वच् योगः हि इति. आदौ कस्यचित् प्रत्ययस्य आदौ कथं परमेव अस्ति तत्र खलु. वच् इति प्रातिपदिकम् भवति तत्र, पदं नास्ति, पदं नास्ति
धातु.
किन्तु किन्तु आदौ, ओ आदौ इत्युक्ते आदौ इति न, अस्तु अस्तु, तत्र प्रत्ययस्य आदौ कथं भवति तत्र, तदेव मम प्रश्नः.
न न भगिनि, तत्र सन्धिकार्यं कर्तुम् इच्छामः, नाम यथा तत्र वच् योग हि इति दत्तं,
हि प्रत्यय
प्रथमतया वच् इति अस्ति, पद पदं नास्ति वच् इति. तदनन्तरं तत्र हकारः भवेत्, एषः सन्धिः यत्र कार्यं करोति इति चिन्तयामः, तर्हि अकारः हकारः अग्रे भवेत् इति चिन्तयामः. किन्तु हकारः कस्मिन् प्रत्यये अस्ति इति तत्र अन्तर्भूतः भवेत् खलु.
मध्यमपुरुष एकवचनं हि प्रत्यय आयाति न भगिनि, लङ्लकारे इति
नाम तत्र अग्रे कोऽपि तत्र पदं कर्तुम् इच्छामः, सन्धिकार्यं कर्तुम् इच्छामः, पदं निर्मातुम् इच्छामः, पूर्वभागः तत्र पदं नास्ति अपदान्त इति चिन्तयामः. पूर्व
इत्युक्ते महोदय तत्र पदं न भवेत् तस्मात् पूर्वमेव कार्यं कुर्मः इति खलु महोदय.
नाम तत्र एकः भागः नाम वच् इति भागः, तत् पदं नास्ति खलु. इदानीम् अग्रे तत्र किमपि कार्यम् अस्ति इति चिन्तयामः, किन्तु तदनन्तरं हकारः कस्मिन् हकारः कस्मिंश्चित् रूपे भवेत् खलु, तत्र अग्रे हकारः खलु, अस्य सन्धिः कार्यं करोति चेत् तत्र अग्रे हकारः भवेत् खलु. तत्र
झयोहोन्यतरस्याम् इत्यस्य
इति सन्धिकार्यम् इति चिन्तयामः, तर्हि तत्र हकारः अग्रे भवेत्. किन्तु हकारः कस्यापि प्रत्यये कस्मिंश्चित् प्रत्यये भवेत्, यतोहि एतेन प्रत्ययेन पूर्वभागस्य नाम वच् योगः किमपि कोऽपि प्रत्ययः, तदनन्तरं पदं भवति इति चिन्तयामः. वच् योगः प्रत्ययः पदं भवति इति चिन्तयामः, किन्तु प्रत्यये आदौ हकारः भवेत् खलु. तर्हि यदि एषः सन्धिः कार्यं करोति चेत्
महोदय, मम एकः प्रश्नमस्ति, जयोः अन्यतरस्यां सूत्रे तत्र किमपि कुत्रापि तत्र येन वदति जलां जशोन्ते इति सूत्रं कार्यं करणीयम् इति न वदति तत्र, किमर्थं तत् सूत्रं
सावर्ण्यम् इति अस्ति खलु भगिनि. तर्हि अतः एव सवर्णः इति अनुवृत्तिः अस्ति खलु, सवर्णः इति कारणेन तत्र जलां जशोन्ते कार्यं करोति इति वयं चिन्तयामः. यतोहि तत्र वर्गीयव्यञ्जनस्य तत्र चतुर्थ व्यञ्जनम् आगच्छति.
आं महोदय, यत् भवान् वदति इत्युक्ते तत्र हकारयुक्तप्रत्ययः भवेत् चेत् हकारः एव आदौ भवेत् तत्र, अपि च अपदान्ते भवेत्, अपदान्ते तत्र भवेत्, तदा एव जलां जशुन्ते इत्यस्य कार्यं न भवति तत्र.
तादृशी स्थितिः भवेत्, किन्तु तत्र एकः एव प्रत्ययः अस्ति, हि प्रत्ययः, यस्य प्रथमवर्णः अस्ति हकारः, हकारादिः प्रत्ययः, नाम यस्य प्रत्ययस्य आदौ हकारः अस्ति सः हकारादिप्रत्ययः खलु?
आम्,
हा, सः प्रत्ययः केवलम् एकः हि प्रत्ययः इति दत्तम्. किन्तु सः अस्ति चेत् किं कार्यं भवति तत्र?
इदानीं तत्र पदस्य प्रसक्तिः एव नास्ति, पदं पदान्ते नास्ति, अतः तत्र झलां झषुन्ते इत्यस्य प्रसक्तिः एव नास्ति. इदानीं तत्र हु झल्भ्यो हे धि हेर्धिः इति सूत्रम् आगच्छति, तेन तत्र हकारस्य धकारादेशः धि इति भवति हकारस्य, वच् योगः धि वग्धि इत्युक्ते इदानीं तत्र झयो होन्यतरस्यां तस्मात् प्रसक्तिः एव नास्ति इत्युक्ते तत्र प्रश्नः आसीत् झयो होन्यतरस्यां सर्वत्र पदान्ते एव आगच्छति वा, प्रवर्तते वा इति न इति दर्शयितुं तत्र एतादृशम्
उदाहरणं. वग्दि इति अनन्तरं तत्र वाक्यद्वयमस्ति,
तदूत्रेण
वाक्यं पठतु भगिनि अग्रे. वग्दि अनन्तरं
अतः झयो होन्यतरस्याम् इति सूत्रस्य कार्यं पदान्ते एव, तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते, वा पदान्तस्य इत्यस्मात् विभक्तिपरिमाण परिणामं कृत्वा पदान्तात् इति अनुवृत्तिः स्वीकार्या, वा पदान्तस्य इत्यस्मात् विभक्तिपरिणामं कृत्वा पदान्तात् इति अनुवृत्तिः स्वीकार्या, अपि च लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा सूत्रे पदान्ते इति कथनस्य आवश्यकता नास्ति एव, अनेन लाघवम् अपदान्ते न प्राप्यते, अतः पदान्ते नोक्तम्. एतत् सर्वं झयो होन्यतरस्याम् इति सूत्रस्य कृते.
तत्र
हा तत्र अपदान्ते इति न प्राप्यते, पदान्ते इति अपि न उक्तम्, यतोहि सूत्रे किं तत्र अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति तदपि तद् न उक्तम्, अनेन लाघवं भवति, अपदान्ते इति न प्राप्यते, अतः पदान्ते इति अपि न उक्तम्, यतोहि अपदान्ते इति इत्यस्य प्रसक्तिः एव नास्ति, अतः पदान्ते एव इति तत्र अवगतम्, अतः तदपि न उक्तम्. तर्हि आहत्य तत्र झयो होन्यतरस्यां पदान्ते एव भवति वा इति प्रश्नतः आरब्धः अभवत्. वस्तुतः अपदान्ते इत्युक्ते हकारः कस्यचित् प्रत्ययस्य आदौ भवेत् इति, झयो होन्यतरस्याम् इति सूत्रं हकारस्य कृते एव कार्यं करोति, तत्र अतः हकारः कस्यचित् प्रत्ययस्य आदौ भवेत्, अपदान्ते भवेत् चेत् आदौ भवेत्. एकः एव प्रत्ययः इति दृष्टवन्तः, हि प्रत्ययः एव अस्ति हकारे, अपि च तत्र किन्तु झयः परः
हि प्रत्ययः अस्ति चेत्, किन्तु हि प्रत्ययः अस्ति चेत् अन्यत् सूत्रम्
आगच्छति, हा
कार्यं करोति.
हु झल्भ्योः हेर् धिः इति सूत्रम् आगच्छति, अतः तत्र धि आदेशः भवति, अतः हि प्रत्यये परे झयो होन्यतरस्याम् इत्यस्य प्रसक्तिः एव नास्ति. तेन अतः तत्र झयो होन्यतरस्याम् इति सूत्रस्य कार्यं पदान्ते एव
इति अवगच्छति.
अपदान्ते किमर्थं कार्यं न करोति इति तत्र विवृतम् अस्ति, यतोहि तत्र अन्यत् सूत्रम् आगच्छति, अतः अस्य सूत्रस्य प्रसक्तिः एव न भवति, यतोहि केवलम् एकः एव हि प्रत्ययः, हकारयुक्तप्रत्ययः, अतः तत्र हकारादिप्रत्ययः, अतः यतो यद्यपि वा पदान्तस्य इत्यस्मात् विभक्तिपरिणामं कृत्वा पदान्तात् इति अनुवृत्तिः स्वीकार्या, लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः अतः तत्र तद् न उक्तं पदान्तात् पदान्ते इति न उक्तम् अपदान्ते तु न भवति एव
नाम तत्र वयं सूत्रस्य तत्र यथा तत्र परम्परा खलु नाम केवलं सूत्रं न पठामः किन्तु अनुवृत्तिसहितसूत्रमेव तत्र स्वीकुर्मः तत्र अनुवृत्तिमध्ये तत्र वयम् एतदपि स्थापितुं शक्नुमः नाम तत्र पदान्तात् इति अपि स्थापितुं शक्नुमः खलु
सत्यं किन्तु
जयः पदान्तात् जयः हकारः पूर्वस्य सवर्णस्य अन्यतरस्याम् इति तादृशम् अनुवृत्तिसहितसूत्रं स्वीकर्तुं शक्नुमः तत्र प्रथमविध प्रथमसमाधानं द्वितीयसमाधानं तत्र लोके कुत्रापि न भवति इति कृत्वा अपादन्तप्रयोगः अतः तत्र पदान्ते इति एव इति तस्य आवश्यकता वक्तव्यम् एव नास्ति इति कृत्वा न वदामः इति पाणिनिशैली खलु यत्र आवश्यकता नास्ति न वदामः इति
अत्र लाघवत्वमेव प्रमुखः विषयः
इति कृत्वा तत्र न वदामः इति
धन्यवादः
भगिनी भवती एव उक्तवती अहं किमपि न कृतवान् समीचीनमस्ति
सम्यक्तया उक्तवान् इदानीं सम्यक्तया अवगतम्
अस्तु भगिनि धन्यवादः अस्तु
वच्योगः धी चकारस्य स्थाने गकारः कथम् आगच्छति महोदय तत्र
अन्यत् एक सूत्रमस्ति चोः
इदानीं भवती तत्र उषाभिनी भवती एव पठतु तत्र हुजल्भ्यो
हुजल्भ्यो हे धि हू धातुतः हू धातु अस्ति ओके हू धातुतः झलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशो भवति येन विधिस्तदन्तस्य इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् पुश्च झलश्च तेषामितरेतरद्वन्द्वौ हुजलः तेभ्यो उझल्भ्यः हुजल्भ्यः पञ्चम्यन्तम् एहे षष्ट्यन्तं धीः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उझल्भ्यः अङ्गेभ्यः हे धीः
इदानीं भगिनी प्रथमतया तत्र अन्तिमभागे तत्र हुझल्भ्यः पञ्चम्यन्तम् इति तद्वाक्यम् एकवारं पठतु
हुझल्भ्यः अङ्गेभ्यः
पञ्चम्यन्तं हुजल्भ्यः पञ्चम्यन्तं
हुजल्भ्यः पञ्चम्यन्तं हे षष्ट्यन्तं दिहि प्रथमान्तं
सूत्रं तर्हि तत्र पञ्चम्यन्तं षष्ट्यन्तं प्रथमान्तम् इति अस्ति चेत् किं किं भवति
पञ्चम्यन्तं परकार्यं पूर्वनिमित्तम् षष्टिभक्ति स्थाने अस्ति सप्तम्यन्तं पूर्वकार्यं परनिमित्तम्
तत्र अस्तु तर्हि तत्र इदानीं तत्र उझल्भ्यः इति तत्र तस्य अर्थः कः इति उक्तम् तत्र हू धातुतः
झलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धी आदेशः भवति धी आदेशः कुत्र भवति इत्युक्ते हू इति धातुः
न धातुभ्यश्च हि प्रत्ययस्य स्थाने नाम जल ऊ धातुतः अपि जलन्तेभ्यः धातुभ्यश्च इति अस्ति खलु चकारः
धातुभ्यश्च
तर्हि धातु समूह तत्र समूह समूहे सदस्यद्वयमस्ति तत्र सर्वे सदस्याः धातवः खलु तत्र जलन्तेभ्यः धातुभ्यः नाम ये धातवः जलन्ताः सन्ति धातुभ्यश्च इति पञ्चमी खलु तर्हि जलन्तेभ्यः इति पञ्चमी नाम जलन्ताः धातवः खलु तेभ्यः अपि हू
धातुः
तत्रापि पञ्चमी नाम हू धातुः तर्हि हू धातुः अपि जलन्तधातुः जलन्तधातवः सन्ति चेत् तदनन्तरं हि प्रत्ययः आगच्छति चेत् तर्हि हि प्रत्ययस्य स्थाने आदेशोः आदेशः भवति समीचीनम्
आं महोदय
इदानीं तत्र हुजल्भ्यो हुजल्भ्यः इति किमर्थमस्ति अत्र दत्तमस्ति अग्रे येन विधिस्तदन्तस्य इत्यनेन अग्रे
तेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल्
जलेभ्यः इत्युक्ते किं जलेभ्यः इत्युक्ते किं
झल् झल् अन्ते
अङ्गेभ्यः येषाम् अन्ते झल्
अस्ति
झल् अस्ति तत् तर्हि तत्र जलेभ्यः इति तस्य अर्थः अवगतः खलु जलेभ्यः इत्युक्ते किम् इति अवगतम् इदानीं हुश्च झलश्च इत्यस्मिन् इत्यनेन किम् आगच्छति
हि प्रत्यय अस्ति चेत्
न न प्रत्यय इदानीम् अग्रे अग्रिमवाक्यं जल
तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् तेषाम् इतरेतर द्वन्द्वौ हुजलः तेभ्यो हुजल्भ्यः
नाम इदानीं किम् उक्तं तत्र हूश्च जलश्च इति अस्ति हूश्च जलश्च तेषाम् इतरेतर द्वन्द्वो इत्युक्ते इतरेतर द्वन्द्वसमासः द्वन्द्वसमासः नाम यत्र वयं तत्र रामः अस्ति लक्ष्मणः अस्ति रामलक्ष्मणौ इति कुर्मः तथैव तत्र हुजल्भ्यः तत्र हुजलः इति भवति अत्र तत्र द्वन्द्वसमासस्य तत्र रामलक्ष्मणौ इति अपि कर्तुं शक्नुमः एकवचने अपि तत्र 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 अन्यत् उदाहरणमस्ति तत्र कोऽपि स्मरति वा तत्र पादहस्तः वा तत्र किमस्ति एकवचने भवति तत्र अङ्गे अङ्गानां तत्र समासे तत्र द्वन्द्वसमासे अङ्गानां तत्र एकवचने भवति इति किमपि कोऽपि नियमः अस्ति नाम पादहस्तः इति वदामः न तु पादहस्तौ इति तत्र किमपि अस्ति भगिनि न इदानीं न स्मरामि किन्तु इतरेतरद्वन्द्व इति इत्यनेन तत्र एकवचने आगच्छति न तु द्विवचने यद्यपि द्वन्द्वसमासः अस्ति अतः तत्र हुजलः इति इति अस्ति तदनन्तरं तेभ्यः इति कृत्वा यतोहि तत्र जलन्तेभ्यः धातुभ्यश्च इति तर्हि तेभ्यः इति बहुवचने तर्हि हुजलभ्यः हुजलभ्यः इति भवति
पञ्चम्यन्तम् ए हे हे षष्ट्यन्तं खानि धी प्रथमान्तम् आदेशः आगमः वा अस्ति त्रिपदमिदं सूत्रम् अङ्गस्य
भगिनि तत्र मनसि किञ्चित् तत्र भ्रमः अस्ति तत्र इतरेतरद्वन्द्वसमासः अन्यसमासः तत्र एकस्मिन् समूहः इति अर्थः भवति अन्यस्मिन् प्रत्येकः इति भवति एकनिमिषः भगिनि तत्र समासपुस्तकं दृष्ट्वा यदि वदामश्चेत् काश
समाहारद्वन्द्वः इति मन्ये महोदय,
समाहारद्वन्द्वः हा, तर्हि अत्र प्रायः समाहारद्वन्द्वः नास्ति खलु, समाहारद्वन्द्वे एव तत्र एकवचने भवति, एतत् इतरेतर, तर्हि तत्र किमर्थं तत्र ओ तर्हि तत्र तत्र भगिनि तर्हि तत्र किं कुजलः इति बहुवचने अस्ति वा?
कुजलभ्यः इति पञ्चमी
पञ्चमी अस्ति, बहुवचने बहुवचने एव अस्ति, तर्हि तत्र हा तर्हि तथैव अस्ति, क्षम्यतां, तर्हि तत्र इतरेतरः अपि समाहारः, तर्हि इतरेतरः इत्युक्ते तत्र हा हा रामकृष्णौ हा 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 बहुपद्वद्वन्द्वसमासः हरिश्च हरश्च गुरुश्च हरिहरगुरवः बहुवचने, तर्हि बहुवचने एव भवति इति मन्ये, क्षम्यतां तत्र अहम् एकवचने इति चिन्तितवान्, बहुवचने एव अस्ति हा 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 इदानीं समीचीनमस्ति, अस्तु तर्हि तत्र इतरेतरद्वन्द्व इत्युक्ते समा तत्र समूह तत्र प्रत्येकस्य तत्र द्विवचने बहुवचने भवति, तत्र एकवचने इति नियमः नास्ति अत्र, अस्तु हा तर्हि तत्र अस्तु इदानीम् अवगतं खलु भगिनि, तर्हि तत्र कुजल्भ्यो हेर्दि इत्यनेन तत्र वच् योगः वग्धि इति भवति,
वच् योग धि वग्धि गकार आगच्छति न महोदय तत्र गकार झल् प्रत्याहारः अस्ति वा गकार किमर्थं महोदय कथं परिवर्तनं भवति
हा तदपि वक्तव्यं खलु सत्यं सत्यं तत्र अकारस्य धकारः इति परिवर्तनम् इति उक्तं सत्यं सत्यं हा तर्हि तत्र
अहम् उक्तवती चोः कुः इति एकसूत्रमस्ति तत्र पदान्ते चकार पदान्ते अपि च झल् प्रत्याहार परे भवति चेत् तत्र चकारस्य ककार आदेशः भवति, च वर्गस्य स्थाने क वर्ग आदेशः भवति, सूत्रमस्ति चोः कुः इति
अत्र तु न दत्तमस्ति न भगिनि
सत्यं सत्यं न दत्तं न दत्तं सत्यं भगिनि इति इति अस्ति सत्यं
सूत्रं किमस्ति भगिनि
चोः कुः
पूर्वमपि आगतं खलु भगिनि
तत्र
कुः भवती एव उक्तवती अस्तु अस्तु
सूत्रसङ्ख्या वदामि वा
पुटसङ्ख्या नाम कस्य ओ तत्र सूत्रस्य सङ्ख्या अस्तु अस्तु सूत्रसङ्ख्या अस्तु
सूत्रसङ्ख्या वदामि
एट् 8 to 30 bagini tatra 8 to 30
8 to 30
8 to 30 praptam bagini dhanyavada
cha vargiya varnasya padante uta jhal varne pare ka varga deshah bhavati
samichinam dhanyavada veda bagini ha uttamam asti ha
अस्तु पदान्ते इति उक्तं वा महोदय भगिनि
पदान्ते पदान्ते उतः जल् वर्णे परे
किन्तु पदान्ते नास्ति तत्र
अस्ति खलु
जल् वर्णे परे अस्तु चोः कुः
चोः कुः 8 to 30
किमर्थं तत्र न दत्तं महोदय
अस्तु इदानीम् अग्रे तत्र कुजल्भ्यो हेर्दि इति कृतवन्तः इदानीं तत्र विशेषणं विशिष्टपदम् एकम् अस्ति तत्र उत्थानम् इति उत्थानम् इति तर्हि तत्र प्रथमं तत्र पुस्तके दत्तमस्ति तद् एकवारं पठति वा भगिनि चत्वारिंशत्तमे पुटे पेज् 40 मध्ये
पेज् 40 मध्ये
विशेषः इति मध्ये अस्ति तत्र पूर्वसवर्णसन्धि इति विषये तत्र विशेषः इति मध्यभागे अस्ति
उदुपसर्गात् न महोदय
सत्यं सत्यं वेदा भगिनी पठति वा
आम् उदुपसर्गात् परस्य स्थाधातोः स्तम्भधातोश्च स्थाधातोः स्तम्भधातोश्च आदौ स्थितस्य सकारस्य सकारादेशो भवति उत् उपसर्गात् परस्य उत् उपसर्गात् परस्य स्थाधातोः स्तम्भधातोश्च आदौ स्थितस्य सकारस्य तकारादेशो भवति करेक्ट् ओके अस्तु तत्र उत् यत् पदम् उत् उपसर्ग अस्ति तत्पश्चात् स्थाधातो रूपं स्थानम् इति रूपं दत्तम् उत् योगस्थानं तत्र उ योग त तकार योग सकार योगः स्थानं तत्र उ योग तकार तत्पश्चात् उत् उपसर्गात् परस्य स्थाधातु अस्ति तस्य सिदस्य सकारस्य थकारादेश भवति सो सकारस्य स्थाने थकार उत् उत् स्थानम् उत्थानम् इति रूपं तस्य तत्र विकल्पेन भवति वा उत्थानम् उत्थानं रूपद्वयं
दत्तम् अस्ति आदौ भागे तत्र फुट्नोट् अस्ति एकस्य थकारस्य लोपो
लोपो भवति अस्तु अस्तु किमर्थं लोपो भवति इति न
अग्रे पश्यामः अग्रे पश्यामः अग्रिमपदम्
उत् योगः स्तम्भनं तत्र स्तम्भधातो तत्र तस्यापि सकारस्य आरम्भ उत् परे यत् धातु अस्ति स्तम्भ रूपं शब्दमस्ति स्तम्भनं तत् सकारस्य तत्रापि थकारादेश भवति उत् योग सकार योग स्तम्भनं उत् योग सकारस्य स्थाने थकार उत्थ उत्थम् उत्थ किमर्थं वदामि उत्थम्बनम् अथवा उत्थम्बनम् इति रूपद्वयम् आयाति सकारस्य
उत्थम्बनम् उत्थम्बनम् इति एव तत्र सकारस्य थकाररूपं रूपेण परिवर्तितं भवति अस्तु
आं महोदय
इदानीं तत्र
करपत्रे
भगिनि
सूत्रं न
इदानीं करपत्रं प्रश्नः कः
न उत्थानम् अपि च उत्थम्बनं कृते किमपि सूत्रम् अस्ति वा महोदय
अग्रे एतदेव भवति भगिनि हा एतदेव दत्तमस्ति तत्र
अस्ति आम् महोदय
अस्ति खलु
पूर्णसवर्णविशेषः इति
हा अतः तत्र अतः एव तत्र अग्रे तर्हि वेदभगिनी प्रथमं
पूर्वसवर्णविशेष उत्थानम् उदः स्था स्तम्भोः पूर्वस्य इति सूत्रेण उत् उपसर्गौ उपसर्गौत्तरयोः स्था स्तम्भ धात्वोः पूर्णसवर्णादेशो भवति पूर्वसवर्णादेशो भवति उत् उपसर्गौत्तरयोः स्था स्तम्भधात्वोः पूर्णसवर्णादेशो भवति स्था च स्तम्भ च तयोरे इतरेतरद्वन्द्वः स्था स्तम्भौ तयोः स्था स्तम्भोः उदः पञ्चम्यन्तं स्था स्तम्भोः षष्ट्यन्तं पूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् अनुस्वारस्य ययि परसवर्णः इत्यस्मात् सवर्ण इत्यस्य अनुवृत्तिः अपि च तयोर्यवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम् इति अस्तु. तत्र यत्र उत् उपसर्गः अस्ति तत्पश्चात् स्था या वा स्तम्भधातु अस्ति चेत् पूर्णसवर्णादेशो भवति इति सूत्रमुक्तम्. इत्युक्ते किम् इत्युक्ते स्थाधातु स्तम्भधातु अस्ति चेत् तस्य पूर्व यदि उत् उपसर्गः अस्ति चेत् तत्र सकारस्य स्थाने स्थाधातु पूर्वम् आदिमवर्णः सकार अस्ति तदेव स्तम्भो इत्यपि आदिमवर्णः सकार अस्ति तस्य स्थाने सकारादेश कुत्र उदति तत्र अनुस्वारस्य उदः स्था स्तम्भोः पूर्वस्य सवर्णः. पूर्वस्य सवर्णः इत्युक्ते दकारस्य सवर्णः सकारस्य सवर्णः किम् अस्ति इति पश्यामि महोदय. तत्र सकारस्य पूर्वसवर्णः कुत्र किम् अस्ति इति त थ ध ध तत्र सकारस्य स्थाने ठकारादेः किमर्थम् आयाति तत् तत् पश्येम.
तदा प्रथमतया तत्र सूत्रं किं किं वदति इति पश्यामः भगिनि. तत्र आरम्भतः वदतु उत्
उत्
उपसर्गोत्तरयोः
स्थास्तम्भधात्वोः पूर्वस्य सवर्णः संहितायाम्.
हा किन्तु तत्र एकमेकं वाक्यं वाक्यं स्वीकृत्य किञ्चित् वदतु किम् अवगच्छति इति आरम्भतः.
आरम्भतः उत उपसर्ग यत्र अस्ति तत्पश्चात् यत्र स्था
न न भगिनि तत्र उत् उपसर्गतरयोः स्थास्तम्भ
धात्वोः
पूर्वसवर्ण आदेशो
भवति. तत्र उपसर्गयुक्त स्थास्तम्भधातोः पूर्णसवर्णादेशो भवति. एतत् सूत्रेण पूर्वसवर्णादेशो भवति.
इदानीं तत्र अर्थः कः इति अग्रे अग्रे दत्तमस्ति. तत्र एकमेकं सूत्रे किं किम् अस्ति इति प्रत्येकपदस्य तत्र विवरणं दत्तं. तर्हि स्था च
स्था च स्तम्भ च तयोः इतरेतरद्वन्द्वः स्थास्तम्भौ तयोः स्थास्तम्भोः
इत्युक्ते किम्
इत्युक्ते षष्ठी विभक्ति अस्ति न सा स्तम्भोः षष्ट्यन्तरूपं तयोः तो इत्युक्ते स्था विषये अपि च स्तम्भविषये.
हा नाम सा स्था अपि स्तम्भ तयोः
तयोः
इतर इतरेतर द्वन्द्वसमासः यदि कुर्मः नाम रामः लक्ष्मणः
रामलक्ष्मणौ
सः चेत् रामलक्ष्मणौ इति तादृशं रूपं कुर्मः
विवचने
भवति.
तस्य षष्टिविभक्ति अस्ति तयोरोः स्थास्तम्भोः.
तयोः नाम स्थास्तम्भयो स्थास्तम्भोः इति पदस्य तत्र षष्टिरूपमस्ति स्थास्तम्भोः. तर्हि स्थास्तम्भौ इति अस्ति तर्हि तत्र तयोः स्थास्तम्भोः
द्वितीय
द्विवचनम् एव अस्ति. तर्हि तत्र समासपुस्तके दत्तमस्ति वा इति न जानामि किन्तु तत्र नाम प्रातिपदिकं किम् इति तत्र मम अवगमनं नास्ति. तत्र नाम तत्र
स्तम्भः
इति अकारान्तपदमासीत् चेत् भगिनि अतः एव तत्र मम मनसि किञ्चित् क्लेशः यतोहि तत्र रामः अस्ति चेत् तत्र षष्टी द्विवचनं किं भवति
रामलक्ष्मणयोः
न हा योः यकारः आगच्छति खलु.
आम् आम्
किन्तु तत्र यकारः नास्ति तर्हि तत्र अजन्तपदं
स्तम्भोः इति उक्तम्.
हा तत्र गुणी अस्ति चेत् गुणिन् गुणिनोः इति षष्टी द्विवचने भवति खलु.
प्रातिपदिकं स्थास्तम्भः इति नास्ति इति
अजन्तपदं नास्ति अजन्तपदं नास्ति किन्तु द्विवचने स्तम्भौ इति अस्ति अतः मम क्लेशः. शुभभगिनी किमपि वक्तुम् इच्छति वा तत्र
तत्र हलन्त अस्ति चेत् किं भवति इति स्तम्भ इति अस्ति चेत् स्तम्भोः इति भवति, किन्तु तदा स्तम्भौ इति न भवति यथा भवान् उक्तवान्.
गुणिनः
हलन्त हलन्त शब्दानां कृते तत्र नकारः नास्ति, नकारान्तप्रातिपदिकं नास्ति.
पदम् इति चिन्तयामि किन्तु किन्तु
तत्र तत्र
स्तम्भन् इति नास्ति भगिनि, यतोहि स्तम्भ नास्ति चेत् स्तम्भनौ इति स्तम्भनोः इति भवेत्.
तत्र भवत् इति अस्ति खलु महोदय, हलन्त अस्ति किन्तु भवन्तौ इति भवति द्विवचने, अपि च भवतोः इति भवति षष्ठी.
भवतोः तादृशं भवेत्. अस्तु,
अतः तत्र हलन्त
हलन्त इति भवितुमर्हति. अस्तु, समीचीनं.
किं प्रातिपदिकं किम् अस्ति ते तद्
तर्हि स्थास्थम्भ इति एव भवेत् तत्र.
तादृशं भवेत् स्थास्तम्भ.
नास्ति हलन्त
विसर्गः,
हलन्त एव
अजन्तपदं नास्ति, अजन्तपदं नास्ति. स्तम्भ स्तम्भ इति एव स्तम्भः इति नास्ति.
भवान्
तादृशं तादृशं स्तम्भ इति. अग्रे
ओके. उदः पञ्चम्यन्तं स्थास्तम्भोः षष्ट्यन्तं पूर्वस्य षष्ट्यन्तं पूर्वस्य स्थास्तम्भोः इति वा तद् विशेषणविशेषं वा तत्र षष्ट्यन्तं त्रिपदमिदं सूत्रम्.
पूर्वस्य स्थास्तम्भोः इति सत्यं.
अस्तु, उदः पञ्चम्यन्तं पञ्चम्यन्तं परकार्यं परकार्यं कार्यं पर अस्ति उत उदः परकार्यं भवति. अस्तु, अनुस्वारस्य यै परसर्ण इत्यस्य सवर्णः इत्यस्य अनुवृत्तिः, समीतायाम् इत्यस्य अनुवृत्ति तदेव अनुवृत्तिसहितसूत्रम्
किमपि नास्ति. अस्तु भगिनि, अस्तु तर्हि तत्र
उदाहरणस्तम्भोः पूर्वस्य सवर्णः संहितायां, संहितायां पूर्वस्य सवर्णः भवति स्थास्तम्भोः. किमर्थम् आदिमवर्णः इति कुत्रापि तत्र न उक्तं?
न उक्तम्. अस्तु अस्तु, तर्हि अग्रे अग्रे.
अच्छा,
पश्यतु पश्यतु भगिनि, नाम तत्र इदानीं विवरणं बहु दीर्घम् अस्ति, तत्र परिच्छेदचतुष्टयम् अस्ति तत्र.
ओ ओके. आदेः परस्य
अन्य कोऽपि तर्हि तत्र. समीचीनं भगिनि, तर्हि तत्र इदानीं तत्र शोभा भगिनी अग्रे पठति वा?
आं महोदय. आदेः परस्य, परस्य स्थाने यत् कार्यं विधीयते तत् आदिमस्य अलः एव स्थाने भवति. पञ्चमीविभक्तौ यत् कार्यं निर्दिष्टं तत् अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने, न तु सम्पूर्णशब्दस्वरूपस्य. अलोन्त्यस्य इत्यस्य बाधकसूत्रम्. आदेः षष्ट्यन्तं परस्य षष्ट्यन्तं द्विपदमिदं सूत्रं. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अलोन्त्यस्य इत्यस्मात् अलः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं परस्य आदेः अलः स्थाने. आदेः परस्य इति सूत्रे परस्य स्थाने इत्युक्ते तत्र परस्य स्थाने यत् कार्यं विधीयते तत् आदिमस्य अलः एव स्थाने भवति. इत्युक्ते तत्र पञ्चमीविभक्तिं स्वीकृत्य यत् कार्यं निर्दिष्टं भवति तत् कार्यं सर्वदा परवर्णस्य आदिमस्य अलः एव स्थाने भवति इति. अल्वर्णः, अल्वर्णः इत्युक्ते तत्र सर्वे स्वराः, सर्वाणि व्यञ्जनानि, सर्वे वर्णाः आहत्य. अतः तत्र उदः इति इदानीं तत्र किं पञ्चम्यन्तम् इति दृष्टवन्तः. उदः इति पञ्चम्यन्तम्, अतः पञ्चम्यन्तम् इति यदा सूत्रे भवति निमित्तं भवति उदः इति, स्थास्तम्भोः इति षष्ट्यन्तं पूर्वस्य, इत्युक्ते तत्र पञ्चम्यन्तं निमित्तं भवति चेत् आदे आदिम परवर्णस्य आदिमवर्णस्य स्थाने एव कार्यं भवति न तु अन्तिमवर्णस्य इति परस्य स्थाने यत् कार्यं विधीयते तत् आदिमस्य अलः एव स्थाने भवति पञ्चमे विभक्तौ यत् कार्यं निर्दिष्टं तत् अग्रिमशब्दरूपस्य आदिमवर्णस्य एव स्थाने इत्युक्ते तत्र तदेव पूर्वस्मिन् पूर्वस्मिन् सूत्रे उदः इति पञ्चम्यन्तम् अस्ति अतः अस्य सूत्रस्य प्रसक्तिः इदानीम् अलोन्तस्य इत्यस्य बाधकसूत्रम् इत्युक्ते अलोन्तस्य इति सूत्रं वदति यत् कार्यं भवति तत् अलः अन्ते भवेत् इति अलः अन्त्यस्य स्थाने कार्यं भवेत् इति किन्तु पञ्चमीविभक्त्यां तादृशं न भवति निमित्तं पञ्चमीविभक्त्याम् अस्ति चेत् अलोन्तस्य इत्यस्य बाधकसूत्रं भवति बाधा भवति अतः आदिमवर्णे एव कार्यं भवति आदेः इति षष्ठ्यन्तम् अस्ति परस्य षष्ठ्यन्तं द्विपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्मात् तत्र स्थाने इत्यस्य अनुवृत्तिः अस्ति अलोन्तस्य इत्यस्मात् अलः इत्यस्य एव अनुवृत्तिः अन्त्यस्य इति न अनुवृत्तिसहितसूत्रे परस्य आदेः अलः स्थाने तत्र पञ्चमी निमित्तं पञ्चम्याम् अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः भवति परकार्यं यदा परकार्यं भवति तदा आदिमस्य अलः एव स्थाने भवति इति तत्र नियमः अस्ति
अग्रिम नाम तत्र शब्दद्वयम् अस्ति इति चिन्तयामः तयोः मध्ये सन्धिकार्यं भवति तर्हि द्वितीयपदस्य अथवा द्वितीयभागस्य तत्र अग्रिमे तत्र शब्दः किमपि अस्ति द्वितीयभागः तस्मिन् भागे केवलं तत्र प्रथमवर्णे एव तत्र कार्यं निमित्तं भवति न तु सम्पूर्णपदस्य स्थाने यथा तत्र सम्पूर्णशब्दस्वरूपस्य न किन्तु अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव तत्र कार्यं निर्दिष्टं भवति इति भगिनी तत्र भवती तत्र किं बाधकसूत्रम् इति उक्तवती तत्र मम मनसि किञ्चित् क्लेशः अस्ति
अलोन्त्यस्य इति सूत्रं वदति यत् कार्यं स्थानिनः स्थाने भवति तत् अन्त्यस्य अलः स्थाने एव भवति इति न तु आदिमस्य अथवा मध्ये अथवा यत्र कुत्रापि अन्ते एव भवति इति अलोन्त्यस्य इति सूत्रं वदति महोदय अतः तस्य सूत्रस्य येन विधिः तदन्तस्य इति सूत्रात् परम् आगच्छति अयं सूत्रम् इदं सूत्रम्
अलोन्तस्य इति प्रथमतया एकं सूत्रमस्ति तदनन्तरम् एतत् सूत्रम् आदेः परस्य इति बाधकसूत्रम् अग्रे आगच्छति
बाधकसूत्रे हा इति अलोन्त्यस्य इत्यस्मात् परम् एव आदेः परस्य इति आगच्छति अतः तं बाधयित्वा यतोहि तत्र अलोन्त्यस्य इति वदति सूत्रेण उक्तः आदेशः स्थानिनः अन्तिमवर्णस्य स्थाने भवति इति स्थानिनः अन्तिमवर्णस्य स्थाने अतः तस्य बाधकरूपेण इदं सूत्रं वदति यदा पञ्चम्यां निमित्तम् उक्तमस्ति तदा तादृशं मा भवेत् किन्तु आदिमवर्णस्य एव भवेत् कार्यम् इति आदेशः अथवा किमपि
परिवर्तनम् अथवा आदेशः अस्ति चेत् यत् कार्यम् अस्ति तत् केवलं निमित्तं कार्यं प्रथमे वर्णे एव तत् कार्यं भवेत् न तु सम्पूर्णशब्दे इति अस्तु समीचीनम् इदानीम् उषा भगिनी अग्रे झरो झरि सवर्णे
झरो झरि सवर्णे 465 हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे झरः षष्ट्यन्तं झरि सप्तम्यन्तं सवर्णे सप्तम्यन्तं त्रिपदमिदं सूत्रम् हलो यमां यमी लोपः इत्यस्मात् हलः लोपः चेत् अनयोः अनुवृत्तिः
च इति अनयोः अनुवृत्तिः
च योगः अनयोः
इति च योगः इति
च योग इति योग अनयोः अनुवृत्तिकार्यं झयो झयो होऽन्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्
नाम एतत् सूत्रं किं वदति तत्र
हल्
हल् उत्तरस्य झरः विकल्पेन लोपः तकारः तकारः अस्ति चेत् तकार द्विवारम् आगच्छति चेत् एकस्य लोपः भवितुं तत्र विकल्पेन कर्तुं शक्नुमः लोपः भवति इति अस्ति अस्तु तर्हि तत्र इदानीं तत्र उत्थानम् इति पदस्य तत्र विवरणसामग्री सर्व तत्र अस्ति इदानीम् अस्माकं पुरतः किन्तु समयः जातः तर्हि तत्र अग्रिमे सप्ताहे तत्र उत्थानम् उत् योगः स्थानं तत्र तत्र सूत्रत्रयं यत् वयं पठितवन्तः तस्य आधारेण तत्र कथम् उत्थानम् इति रूपं भवति इति अग्रिमे वर्गे द्रक्ष्यामः तर्हि समीचीनमस्ति तर्हि तत्र वेदभगिनी भवती तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा
आम् महोदय पूर्णमिदं पूर्णमुदस्य पूर्णमिदं पूर्णमद पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः।